ओम नमो भगवते वासुदेवाय। अथ चत्वारिंशोऽध्यायः। अक्रूर उवाच, नतोऽस्म्यहं त्वाखिल हेतुहेतुं नारायणं पुरुषमाद्यमव्ययम्, यन्नाभिजातादरविन्दकोशात् ब्रह्मा विरासीत् यत एष लोकः। भूस्तोऽयमग्निपवनखमादिर्महानजादिर्मन इन्द्रियाणि सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः। नैते स्वरूपम् विदुरात्मनस्ते यजादयो नात्मतया गृहीताः। अजोऽनुबद्धः सगुणैरजाया गुणात् परम् वेद न ते स्वरूपम्। त्वाम् योगिनो यजन्त्यद्धा महापुरुषमीश्वरम्, साध्यात्मम् साधिभूतम् च साधिदैवम् च साधवः। त्रय्या च विद्यया केचित् त्वाम् वै वैतानिका द्विजाः, यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया। एके त्वाखिलकर्माणि सन्न्यस्योपशमम् गताः, ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम्। अन्ये च संस्कृतात्मानो विधिनापि हितेन ते यजन्ति त्वन्मयास्त्वाम् वै बहुमूर्त्येकमूर्तिकम्। त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् बह्वाचार्यविभेदेन भगवन् समुपासते। सर्व एव यजन्ति त्वाम् सर्वदेवमयेश्वरम्, येऽप्यन्यदेवता भक्ता यद्यप्यन्यधियः प्रभो। यथाद्रिप्रभवा नद्यः पर्जन्या पूरिताः प्रभो, विशन्ति सर्वतः सिन्धुम् तद्वत्त्वाम् गतयोऽन्ततः। सत्त्वम् रजस्तम इति भवतः प्रकृतेर्गुणाः, तेषु हि प्राकृता स्प्रोता आब्रह्मस्थावरादयः। तुभ्यम् नमस्ते स्त्वविषक्तदृष्टये सर्वात्मने सर्वधियाम् च साक्षिणे। गुणप्रवाहो यमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु। अग्निर्मुखम् ते वनिरङ्ग्रिरीक्षणम् सूर्यो नभो नाभिरथो दिशः श्रुतिः। द्यौकम् सुरेन्द्रास्तव बाहवोर्णवाः, कुक्षिर्मरुत्प्राणबलम् प्रकल्पितम्। रोमाणि वृक्षौषधयः शिरोरुहा, मेघा परस्यास्थिनखानि ते द्रयः। निमेषणम् रात्र्यहनि प्रजापतिर्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते। त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता, लोकाः सपाला बहुजीवसङ्कुलाः। यथा जले सञ्जिहते जलौकसोऽप्युदुम्बरे वा मशका मनोमये। यानि यानि ह रूपाणि क्रीडनार्थम् बिभर्षिः, तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः। नमः कारणमत्स्याय प्रलयाब्धिचराय च, हयशीर्ष्णे नमस्तुभ्यम् मधुकैटभमृत्यवे। अकूपाराय बृहते नमो मन्दरधारिणे, क्षित्युद्धार विहाराय नमः सूकरमूर्तये। नमस्तेऽद्भुतसिंहाय साधुलोकभयापह, वामनाय नमस्तुभ्यम् क्रान्तत्रिभुवनाय च। नमो भृगूणाम् पतये दृप्तक्षत्रवनच्छिदे, नमस्ते रघुवर्याय रावणान्तकराय च। नमस्ते वासुदेवाय, नमः सङ्कर्षणाय च। प्रद्युम्नाय निरुद्धाय सात्वताम् पतये नमः। नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने, म्लेच्छप्राय क्षत्रहन्त्रे नमस्ते कल्किरूपिणे। भगवन् जीवलोकोऽयम् मोहितस्तव मायया, अहम् ममेत्य सद्ग्राहो भ्राम्यते कर्म वर्त्मसु। अहम् चात्मात्मजागार दारार्थ स्वजनादिषु, भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो। अनित्यानात्मदुःखेषु विपर्ययमतिर्यहम्, द्वन्द्वारामस्तमोऽविष्टो न जाने त्वात्मनः प्रियम्। यथा बुधो जलम् हित्वा प्रतिच्छन्नम् तदुद्भवैः, अभ्येति मृगतृष्णाम् वै तद्वत्त्वाहम् पराङ्मुखः। नोत्सहेऽहम् कृपणधीः कामकर्महतम् मनः, रोद्धुम् प्रमाथिभिश्चाक्षैर्यमाणमितस्ततः। सोऽहम् तवाङ्ग्यपगतोऽस्म्यसताम् दुरापम्, तच्चाप्यहम् भवदनुग्रह ईश मन्ये। पुंसो भवेद् यर्हि संसरणापवर्गः, त्वय्यब्जनापसदुपासनया मतिः स्यात्। नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे, पुरुषेश प्रधानाय ब्रह्मणे नन्तशक्तये। नमस्ते वासुदेवाय सर्वभूतक्षयाय च ऋषिकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कंधे पूर्वार्धे क्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोस्तुते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।